स्वजनेषु मैत्री पुमान् भवेदेकवरप्रसादा इति श्रीमच्छंकराचार्य विरचितं श्रीगणपतिस्तोत्रं समर्पितम्।